విష్ణుపాదోదకోద్భూతా బ్రహ్మలోకాదుపాగతా త్రిభిశ్రోతోభిరశ్రాంతం పునానా భువనత్రయం.
విష్ణువితి పునశ్చ విష్ణుపాదోదకాత్ ఉద్భూతా ఉత్పన్నా. విష్ణుపాదోదకమేవ అస్యాః జన్మహేతురిత్యర్థః. విష్ణుపాదోదకమేవ ఉద్భూతం ప్రాదుర్భూతం రూపం యస్యాస్సా ఇతి వా. పునశ్చ బ్రహ్మలోకాత్ ఉపాగతా ఇహ ఆగతా. పునశ్చ త్రిభిః శ్రోతోభిః ప్రవాహైః భువనత్రయం స్వర్గ మృత్యు పాతాలలక్షణం అశ్రాంతం నిష్పరిశ్రమం యథా భవతి తథా పునానా పవిత్రీకురువాణా ఇత్యర్థః. అత ఏవ త్రిశ్రోతా ఇతి నామ దధతీత్యర్థః. పూయ్ పవనే శానచ్ స్నాప్రత్యయశ్చ.
జాతవేదసమాయాంతం ఊర్మిహస్తైః సముత్థితైః ఆజుహావార్థసిద్ధ్యైతం సుప్రసాదధరేవసా.
జాతవేదసమితి సుతరాం అతిశయితః యః ప్రసాదః తస్య ధరా ధారిణీ సా గంగా ఆయాంతం ఆగచ్చంతం తం జాతవేదసం అగ్నిం అర్థసిద్ధ్యై అర్థసిద్ధిం కర్తుం సముత్థితైః ఉచ్చలితైః ఊర్మయః ఏవ హస్తాః తైః కృత్వా ఆజుహావ ఇవ. అన్యః అపి హస్తసంకేతేన కంచిదాహ్వయతి. పునః పునః ఊర్మిసముత్థానం తత్కర్తృకం ఆహ్వానమివేత్యుత్ప్రేక్ష. ఆంగ్పూర్వాత్ హ్వయతేః కర్తరి లిట్.
సమ్మిలద్భిర్మరాలైః సా కలం కూజద్భిరున్మదైః దదే శ్రేయాంసి దుఃఖాని నిహన్మీతి తమభ్యధాత్.
సమ్మిలద్భిరితి సమ్మిలద్భిః సమ్యక్ మిలంతి ఏకీభవంతీతి తథోక్తైః తథా ఉన్మదైః ఉన్మత్తైః. అత ఏవ కలం మధురం యథా భవతి తథా కూజద్భిః శబ్దాయమానైః మరాలైః హంసైః యుక్తా సా దేవీ గంగా తం అగ్నిం ఇతి అభ్యధాత్ ఉవాచ. కిమితి తత్ భో అగ్నే తుభ్యం శ్రేయాంసి దదే దుఃఖాని నిహన్మి. ఆత్మశక్త్యాభిధానే జలరూపతయా అశక్తాపి స్వకీయ తీరగత హంసనినాదేన వదతి స్మేతి భావః.
కల్లోలైరుద్గతైరర్వాచీనం తటమభిద్రుతైః ప్రీతేవ తమభీయాయ స్వర్ధునీ జాతవేదసం.
కల్లోలైరితి స్వర్ధునీ గంగా ప్రీతా సతీ ఉద్గతైః ఆనందాత్ ఉద్వేలైః. అత ఏవ అర్వాచీనం అర్వాగ్భవం తటం అభిద్రుతైః పలాయితైః కల్లోలైః కృత్వా తం జాతవేదసం అభీయాయేవ సమ్ముఖీబభూవేవ.
అథాభ్యుపేతస్తాపార్తః నిమమజ్జానలః కిల విపదా పరిభూతాః కిం వ్యవస్యంతి విలంబితుం.
అథేతి అథ అనంతరం తాపేన हरतेजो जन्मना आर्तः पीडितः अत एव अभ्युपेतः सम्मुखम् उपगतः अनलः अग्निः किलेति प्रसिद्धौ निममज्ज निमग्नः अभूत् ननु झटित्येव किं मग्नः इत्यर्थान्तरम् न्यस्यति विपदा आपदा परिभूताः जिताः पुरुषाः विलम्बितुम् आपत्प्रतीकारविलम्बभविष्णुताम् सोढुम् किं व्यवस्यन्ति उद्युञ्जते अपितु नेत्यर्थः प्रतीक्ष्यते जातु नकालमार्तिः इति न्यायादिति भावः गङ्गावारिणि कल्याणकारिणि
श्रमहारिणि समग्नो निर्वृतिं प्राप पुण्यभारिणि तारिणि
गङ्गेति सह अग्निः कल्याणकारिणि अनेकमङ्गलविधायिनि श्रमहारिणि परिश्रमहारके पुण्यं भारयति जनैः सङ्ग्राहयति तस्मिन् पुण्यभारिणि येन जनाः पुण्यभारवन्तः भवन्तीति भावः तारिणि भवार्णवतारिणि गङ्गावारिणि गाङ्गेयजले मग्नः स्नातः सन् निर्वृतिं सुखं प्राप तापार्तानां वारिणि मज्जनमेव सुखैकहेतुरिति भावः
तत्र माहेश्वरं धाम संचक्राम हविर्भुजः गङ्गायाम् उत्तरङ्गायाम् अन्तस्ताप विपद्धृति
तत्रेति माहेश्वरं शैवं धाम तेजः हविर्भुजः अग्नेः सकाशात् तत्र गङ्गायां संचक्राम संक्रान्तं लग्नमिति यावत् अत एव किम्भूतायां गङ्गायां अन्तर्मध्ये ताप एव विपत्तां धरति तथोक्तायाम् अत एव उल्ललिताः अतिवेलाः तरङ्गाः कल्लोलाः यस्याः तथोक्तायाम् विशेषणद्वयार्थस्य पूर्ववाक्यानन्तरभावितया पृथग्वाक्यत्वेन व्यपदेशे कर्तव्ये विशेषणतया वाक्यात् पूर्वोपमादानम् यत्तत् पूज्यतया व्यवस्थितम् न तु चित्तपरितोषाय धामसङ्क्रमणात् प्राक् विपद्धरणासम्भवात् धृता इति पञ्चम्यन्तपाठे हविर्भुजः विशेषणम् उत्तरङ्गत्वम् च जलप्रकृतिविलसितम् च स्वीकर्तव्यम्
कृशानुरेतसोरेतसि आदृते सरितातया निश्चक्राम ततः सौख्यम् हव्यवाहो वहन् बहु
कृशान्विति तया सरिता गङ्गया कृशानुरेतसः हरस्य रेतसि धामनि कृशानुरेतः सर्वज्ञः इत्यमरः आदृते आदरपूर्वकम् गृहीते सतीत्यर्थः हव्यवाहः अग्निः निजन्तात् पचाद्यच् बहु सौख्यम् वहन्सन् ततः गङ्गातः निश्चक्राम बहिर्निःसृतः
सुधासारीरिवाम्भोभिः अभिषिक्तो हुताशनः यथागतम् जगामाथ पराम् निर्वृतिमादधत्
सुधासारैरिति अथ अनन्तरम् सुधासारैरिव अमृतमयैरिव अम्भोभिः जलैः अभिषिक्तः स्नातः अतएव पराम् अत्युत्कटाम् निर्वृतिम् सुखम् आदधत् बिभ्रत् हुताशनः अग्निः यथागतम् आगतम् अनतिक्रम्य जगाम गतवान्।
सा सुदुर्विषहम् गंगा धाम कामजितो महत् आदधाना परीतापम् अवाप व्योमवाहिनी।
सेति व्योम्नि वाहः प्रवाहः अस्ति यस्याः तथोक्ता सा गंगा कामजितः महेश्वरस्य महत् सुदुर्विषहम् ईषद्दुःसुषु इति कृच्छ्रार्थे खल् धाम तेजः आदधाना सती परितापम् संतापम् उपसर्गस्य घञ्यमनुष्ये बहुलम् इति दीर्घः अवाप प्राप्तवतीत्यर्थः।
बहिरार्ता युगान्ताग्नेः तप्तानीव शिखाशतैः हित्वोष्णानि जलान्यस्याः निर्जग्मुर्जलजन्तवः।
बहिरिति जलजन्तवः यादांसि आर्ताः सन्तः युगान्ताग्नेः प्रलयकालीन अनलस्य शिखाशतैः प्रकरणात् शिवधाम्नः एव तप्तानि अत एव उष्णानि अस्याः गङ्गायाः जलानि हित्वा परित्यज्य बहिर्निर्जग्मुः निर्गतवन्त इत्यर्थः। यानि महेश्वरधामशिखाशतानि तानि अत्युग्रसन्तापरूपसाधारणधर्मेण गम्यमानेन प्रलयकालानलसम्बन्धीनि वेति उत्प्रेक्ष। अर्चिर्हेतिः शिखास्त्रियाम् इत्यमरः हित्वेति ओहाक्त्यागे इत्यस्य।
तेजसा तेन रौद्रेण तप्तानि सलिलान्यपि समुदञ्चन्ति चण्डानि दुर्धराणि बभारसा।
तेजसेति सा गंगा रौद्रेण तेन तेजसा तप्तानि अत एव समुदञ्चन्ति अतितापवशात् उत्प्लुत्य बहिर्निस्सरन्तीत्यर्थः। अत एव चण्डानि प्रचण्डस्वरूपाणि अत एव दुर्धराणि अपि सलिलानि बभार धृतवती। तेजसः रुद्रसम्बन्धित्वादिति भावः।
जगच्चक्षुषि चण्डांशौ किञ्चिदभ्युदयोन्मुखे जग्मुषट्कृत्तिकामाघे मासि स्नातुम् सुरापगाम्।
जगदिति माघे माघसंज्ञके मासि पद्दन् इति मासशब्दस्य हलन्तमासादेशः। जगच्चक्षुषि जगन्नेत्रभूते चण्डांशौ सूर्ये किञ्चित् अभ्युदयोन्मुखे शैलान्तर्हितेन तेजसा दिशः किञ्चित् प्रकाशयतीत्यर्थः। षट् कृत्तिकाः स्नातुम् सुरापगाम् मन्दाकिनीम् जग्मुः प्रापुः। अथ चतुर्भिः सुरापगाम् विशिनष्टि।
शुभ्रैरभ्रङ्कशैरूर्मि शतैस्वर्गनिवासिनाम् कथयन्तीमिवालोक अवगाहाचमनादिकम्।
शुभ्रैरिति आलोकः दर्शनम् अवगाहः स्नानम् आचमनम् चेत्यादीनि यस्य तादृशम् कर्म कुर्वताम् स्वर्गनिवासिनाम् अभ्रङ्कषैः उत्प्लुत्य आकाशसृग्भिः शुभ्रैः ऊर्मिशतैः तरङ्गशतैः आत्मदुःखम् कथयन्तीम् इवेत्युत्प्रेक्षा। अस्मिन् श्लोके पदद्वयाध्याहारदोषः स्फुट एव। क्रियाकारकयोः परस्परनित्यसम्बन्धात् आक्षेपलक्षणन्यायेन केचित् समाददते। उत्प्लुतानि यानि तरङ्गशतानि तानि कथनसंज्ञानानीवेति भावः। यथा अन्योऽपि आत्मव्याधिहेतुकम् कञ्चिददनीयम् पदार्थम् कञ्चिदपि पुरुषम् दर्शयित्वा आस्वाद्य च तत्पदार्थदोषम् कथयति तथा इयमपीति बोद्धव्यम्। अभ्रङ्कशैरिति सर्वकूलाभ्रकरीशेषु इति अभ्रोपपदकात् कषेः खष्।
सुस्नातानाम् मुनीन्द्राणाम् बलिकर्मोचितैरलम् बहिः पुष्पोत्करैः कीर्ण तीराम् दूर्वाक्षतान्वितैः।
सुस्नातानामिति सुस्नातानाम् मुनीन्द्राणाम् सप्तर्षीणाम् बलिकर्मणि पूजाविधौ उचितानि योग्यानि तैः। यथा दूर्वाभिः अक्षतैश्च अन्वितैः युक्तैः पुष्पोत्करैः कुसुमसमूहैः बहिः कीर्णतीराम् व्याप्तसैकताम् लाजाः पुम् भूम्नि चाक्षताः इत्यमरः। अलम् शब्दोऽत्र अत्यर्थवाचकः। स च कीर्णतीराम् इत्यतः प्राक् अन्वयितव्यः।